इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी गुजरातस्य भावनगरे 234,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। देशस्य समृद्धेः विकासस्य च कृते आत्मनिर्भरता महत्वपूर्णम् इति उक्तवान्। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अद्य अवदत् यत् बहुप्रतीक्षितस्य अहमदाबाद मुम्बई बुलेट ट्रेन इत्यस्य प्रथमः खण्डः 2027 कार्यान्वितः भविष्यति। मोरक्को देशे आत्मनिर्भर भारतेति उपक्रमस्यान्तर्गतं प्रथमं भारतीय रक्षा विनिर्माण केन्द्रम् उपस्थाप्यते। ईरान देशेन उक्तं यत् तेहरानः स्वस्य परमाणु कार्यक्रमस्य विषये किमपि अनुचितं पीडनं न स्वीकरिष्यति इति। एतादृशाः पदाक्षेपाः तनावं वर्धयितुं शक्नुवन्ति। अपि च बैडमिंटन क्रीडायां भारतस्य सात्विक साईराज रंकीरेड्डी चिराग शेट्टी इत्युभयोः पुरुषयुगलं 2025 चाइना मास्टर्स स्पर्धायाः उपान्त्यचक्रीये द्वन्द्वे मलेशिया देशस्य अरोन चिया सोह वुई इक इत्युभौ सम्मुखीकुरुतः। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रत्येकस्मिन् क्षेत्रे आत्मनिर्भरतायाः आह्वानम् अकरोत्। विदेशेषु भारतस्य अवलम्बनं तस्य बृहत्तमेषु शत्रुषु अन्यतमम् अस्ति इति दृढीकृतवान्। सः अवदत् यत् 2047 विकसित भारतस्य संकल्पं साधयितुं भारतं स्वावलम्बी राष्ट्ररूपेण विश्वस्य समक्षं स्थातुं समयः इदमेव अस्ति। प्रधानमन्त्री अद्य भावनगरे समुद्र से समृद्धि इत्यस्मिन् कार्यक्रमे सम्बोधयनासीत्। भारतं समुद्रीय महाशक्तिः विनिर्मातुं स्वस्य सर्वकारस्य दूरदृष्टिं प्रकटयन् प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् 2047 वैश्विक समुद्रीय व्यापारे देशस्य भागं त्रिगुणितं कर्तुं लक्ष्यमस्ति। कार्यक्रमावधौ प्रधानमन्त्रिणा 234,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च विहितम्। श्रीमोदी मुम्बई अन्ताराष्ट्रिय क्रूज टर्मिनल इत्यस्य अपि उद्घाटनं विहितवान्। अपि च 8,770,000 कोटि रूप्यकाणां अनेकासां प्रमुख सागरीय परियोजनानां उद्घाटनं कृतवान्। भारतस्य ऐतिहासिकस्य सागरीय विषये प्रवदन् प्रधानमन्त्री अवदत् यत् एकः समयः आसीत् यदा विश्वस्य 40-50% यावत् सागरीय व्यापाराः भारते निर्मितानां नौकायानेन क्रियते स्म।
भारत को दुनिया की एक बड़ी समुद्री शक्ति बनाने के लिए तीन और बड़ी स्कीम्स पर भारत सरकार काम कर रही है। इन तीन योजनाओं से शिप बिल्डिंग सेक्टर को आर्थिक मदद मिलने में आसानी होगी, हमारे शिपयार्ड्स को मॉडर्न टेक्नोलॉजी अपनाने में मदद होगी और डिजाइन और क्वालिटी सुधारने में भी बहुत मदद मिलने वाली है। इन पर आने वाले वर्षों में 70,000 करोड़ रुपए से ज्यादा खर्च किए जाएंगे।
प्रधानमन्त्रिणा समुद्रीय क्षेत्रस्य दुर्बलतायाः कृते पूर्व सर्वकारं आरोपितम्। उक्तं च यत् अनुज्ञापत्र प्राप्त राजव्यवस्थया वैश्वीकरणोत्तर नीतिभिः च वैदेशीय राष्ट्राणाम् उपरि अवलम्बनं वर्धितम्। सः अघोषयत् यत् इदं क्षेत्रं शीघ्रमेव एकराष्ट्रं एकपत्तन प्रक्रियाम् अंगीकरिष्यति इति, यस्य उद्देश्यं सम्पूर्णे देशे पत्तन प्रक्रियां सरलीकरणम् अस्ति।
पोर्ट लेड डेवलपमेंट को गति देने के लिए 1,000 करोड़ रुपए के प्रोजेक्ट का शिलान्यास और उद्घाटन किया गया है। देश में क्रूज टूरिज्म को प्रमोट करने के लिए आज मुंबई में इंटरनेशनल क्रूज टर्मिनल का भी लोकार्पण किया गया है। भावनगर के गुजरात के विकास से जुड़े अनेक प्रोजेक्ट भी शुरू हुए हैं।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। केन्द्रीय रेल मन्त्री अश्विनी वैष्णवः अद्य अवदत् यत् बहुप्रतीक्षितस्य अहमदाबाद मुम्बई बुलेट ट्रेन इत्यस्य प्रथमः खण्डः 27,000-2,000 वर्षपर्यन्तं कार्यान्वितः भविष्यति। नवी मुम्बई नगरे घनसोली शिलफाटा सुरंगयोः सफलतायाः अनन्तरं मन्त्री वार्तावाहिन्यैः सह वार्तालापं कुर्वन् आसीत्। श्री वैष्णवः अहमदाबाद मुम्बई बुलेट रेल परियोजनायां न्यू ऑस्ट्रियन टनलिंग पद्धत्याः सफलतायाः प्रशंसाम् अकरोत्, यतः एषा 8.4 किलोमीटर परिमितः सुरंगमार्गः बीकेसी सिलफाटा इत्येतयोः मध्ये 21 किलोमीटर परिमितं यावत् समुद्रान्तरगत सुरंगस्य भागः अस्ति, यस्मिन् ठाणे क्रीक इत्येतयोः अधः 7 किलोमीटर यावत् विस्तारः अन्तर्भवति। सः सूचितवान् यत् अस्याः परियोजनायाः 20,000-300 यावत् किलोमीटर मार्गः पूर्णः अभवत्। ईरानदेशस्य विदेशमन्त्री सैयद अब्बास अराघची इत्येषः उक्तवान् यत् तेहरानः स्वस्य परमाणु कार्यक्रमस्य विषये किमपि अनुचितं पीडनं न स्वीकरिष्यति इति। एतादृशाः पदाक्षेपाः तनावं वर्धयितुं शक्नुवन्ति इति। अन्ताराष्ट्रिय परमाणु ऊर्जा संस्थायाः IAEA इत्यस्य प्रमुखेन राफेल ग्रौशी इत्यनेन सह दूरवाण्या वार्तालापे अराघची इत्यनेन एषा टिप्पणी कृता। रक्षामन्त्री राजनाथसिंहः सोमवासरात् मोरक्को देशस्य द्विदिवसीय आधिकारिक यात्रायां भविष्यति। एतत् कस्यापि रक्षामन्त्रिणः उत्तर अफ्रीका देशस्य प्रथमा यात्रा भविष्यति, येन भारत मोरक्को देशयोः मध्ये वर्धमानस्य सामरिक अभिसरणस्य विषये अवधानं प्रदीयते। भ्रमणावधौ मन्त्री विरेचिड नगरे टाटा एडवांस्ड सिस्टम मोरक्को इत्यस्य वील्ड आर्म्ड प्लेटफॉर्म इत्यस्य नूतन निर्माण सौकर्यस्य उद्घाटने भागं ग्रहीष्यति। एतत्सौविध्यम् अफ्रीका देशस्य प्रथमं भारतीय रक्षा विनिर्माण केन्द्रमस्ति, यत् आत्मनिर्भर भारत उपक्रमस्य अन्तर्गतं भारतस्य रक्षा उद्योगस्य वर्धमान वैश्विक पदाक्षेपं प्रतिबिम्बयति। श्रीसिंहः मोरक्को देशस्य समकक्षीयेण अब्देलतीफ लौडियाई इत्यनेन सह द्वैपाक्षिकं मेलनं करिष्यति, येन रक्षा सामरिक उद्योग सहकारः सुदृढः भवेत्। उभौ पक्षौ रक्षाक्षेत्रे सहकार विषये सहमति पत्रेपि हस्ताक्षरे करिष्यतः इति अपेक्षास्ति। सूचना प्रसारण राज्यमन्त्री एल मुरुगनः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे 25 कोटि जनाः दारिद्र्यात् बहिः समागताः सन्ति। अद्य नवदिल्ल्यां मोदिनॉमिक्स अ जर्नी ऑफ इन्क्लूसिव ग्रोथ इति पुस्तकस्य विमोचनानन्तरं मन्त्री अवदत् यत् अस्मिन् पुस्तके प्रधानमन्त्रिणः नरेन्द्र मोदिनः 25 वर्षाणि यावत् सार्वजनिक सेवाः गुजरातस्य मुख्यमन्त्रीतः भारतस्य प्रधानमन्त्रिपर्यन्तं तस्य परिवर्तनशील यात्रा च चित्रितमस्ति। अस्मिन् कार्यक्रमे भाषमाणः सूचना प्रसारण मन्त्रालयस्य सचिवः संजय जाजू उक्तवान् यत् सर्वकारेण कार्यान्वितानां योजनानां सकारात्मक प्रभावं प्रकाशयितुं शोधस्य आवश्यकतायाः विषये अवधानं प्रदत्तम्।
Not just the economics, an essential read for policy makers, scholars, business leaders and citizens who wish to understand not just the economics of Modi ji but also the larger story of India's quest for inclusive and sustainable growth.
Ante krida vartasu badminton kridayam bharatasya satvik sairaj ranki reddy chirag setty ityubhayoh purushah पुरुषयुगलं स्वकीयेन उत्तम प्रदर्शनेन 25,000-2,000 वर्षस्य चाइना मास्टर्स स्पर्धायाः उपान्त्यचक्रीये द्वन्द्वे मलेशिया देशस्य आरोन चिया सोह वुई इक इत्युभौ सम्मुखी कुरुतः इति वार्ताः।